आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्याः भारतमण्डपे IATA इति अन्ताराष्ट्रिय वायु परिवहन संघस्य 81वें उपवेशने भागं गृह्णीयात्। अवसरेऽस्मिन् प्रधानमन्त्री श्रीनरेन्द्रमोदी उपस्थितान् जनान् अपि सम्बोधयेत्। अवधेयास्पदं वर्तते यत् विश्व वायु परिवहन शिखर सम्मेलनं विमानोद्योगस्य प्रमुख प्रकरणेषु ध्यानं केन्द्रितं करिष्यति, येषु प्रकरणेषु मुख्यं वर्तते अस्योद्योगस्य अर्थव्यवस्था, सम्पर्कः, ऊर्जासुरक्षा, ईंधन इत्यस्य उत्पादनम्, डीकार्बोनाइजेशन इत्यस्य कृते वित्तपोषणम्, नवाचारः च। कृषिविभागेन अन्यैश्च सम्बद्ध विभागैः सह मिलित्वा विकसित कृषि संकल्पाभियानस्य तृतीये दिने ग्राम्य प्रचार कार्यक्रमः निरन्तरं सञ्चालितः। एतदभियानं विकसित भारतम् इति राष्ट्रस्तरीयम् अङ्गम् एवं सतत कृषिपद्धतीनां संवर्धनं, कृषकाणां च कल्याणं साधयितुं लक्ष्यीकृत्य आयोज्यते। अस्याभियानस्य तृतीये दिने कार्गिल खण्डे विशेषतः कार्यक्रमाः आयोज्यन्ते। देशीय कृषकाः उत्साहपूर्वकं सहभागित्वम् अकुर्वन्। केन्द्रीयं विभागीयं च दलं ग्रामेषु भ्रमणं कृत्वा जनजागरूकतायाः कार्यक्रमान्, संवाद शिविराणि, प्रात्यक्षिक प्रदर्शनानि च आयोजयन्। एतासु क्रियासु बारु, तितिचुमेन, पोयेन इति त्रिषु प्रमुख ग्रामेषु अभियानारम्भः विधिवत् सम्पन्नः। बारु ग्रामस्य आयोजने खादिम हुसैन इत्युपाध्यायः क्षेत्रस्य परिषद् सदस्यः प्रमुख अतिथिरूपेण आसीत्। सः कृषकेभ्यः आधुनिक कृषि प्रणालीनाम् अङ्गीकरणं, शासन योजनानां च लाभग्रहणं कर्तव्यमिति प्रेरणां दत्तवान्। तत्र डॉक्टर नसरीन फातिमा इत्याचार्या तरकारी फल वृक्षयोः यांत्रिक कीटक नियंत्रण विषये विस्तीर्णं व्याख्यानं दत्तवती। सा जीवामृतस्य निर्माण प्रक्रियां प्रात्यक्षिक रूपेण अपि अदर्शयत्। गृहमन्त्रिणा अमितशाहेन प्रोक्तं यत् केन्द्रप्रशासनम् आपराधिक न्याय प्रणाल्यां न्यायिक साक्ष्य आधारित दृष्टिकोणाय प्राथमिकतां प्रदत्त अस्ति। कोलकाताया राजेराहाटे नवीन केन्द्रीय न्यायिक विज्ञान प्रयोगशाला भवनम् उद्घाटयन् शाहः प्रोक्तवान् यत् फोरेन्सिक मूलभूत संरचनायाः पुनरुद्धारः अस्य प्रयासस्य महत्वपूर्णः अंशः विद्यते। उत्तराखण्डे चमोली जनपदस्य उच्चावर्त्यां हिमालय उपत्यकायां स्थितं यूनेस्को विश्व धरोहर स्थलं पुष्पानां घट्टिका उपत्यका राष्ट्रिय उद्यानम् अद्य प्रभृतिः पर्यटकेभ्यः प्रकृति अनुरागेभ्यः उद्घाटितम्। पुष्पवाटिकायाः उद्घाटनस्य प्रथमदिवसे 49 पर्यटकाः सुन्दरीम् उपत्यकां सम्प्राप्नुवन्। प्रवेशाय अनुमतिः सम्प्रति आभासीयेन, प्रत्यक्षेण च माध्यमेन प्राप्तुं शक्यते। बांग्लादेशस्य अन्ताराष्ट्रिय अपराध न्यायाधिकरणेन ह्यः पूर्व प्रधानमन्त्री शेख हसीना इत्येताम् अपि च पूर्व गृहमन्त्री असदुज्जमान खान कमल इत्यमुं च निगडयितुम् आदेशः प्रदत्तः। गतवर्षे जुलाई अगस्त मासयोः सामूहिक जन विद्रोहस्य समये मानवतायाः विरुद्धं कृतानाम् अपराधानां कृते आदेशोऽयं प्रदत्तः। 25-2000 नॉर्वे शतरंज प्रतिस्पर्धायां गतरात्रौ गुकेशेन मैग्नस कार्लासन पराजितम्। कार्लासन विश्वविख्यातः शतरंज नायकः वर्तते। गुकेशः प्रथमवारम् इत्यमुं पराजितवान् इति वार्ताः।